यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानम् सृजाम्यहम्।
परित्राणाय साधूनां विनाशाय च दुष्कृता धर्म संस्थापनार्थाय सम्भवामि युगे युगे।
धर्म संस्थापनार्थाय